इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। आदौ मुख्यः वार्ताः। प्रधानमन्त्रिणा नरेन्द्र मोदिना अहमदाबादस्य साणन्द ओएसएटी इत्यत्र केएन्स अर्धचालक संयंत्रस्य उद्घाटनं कृतम्। रक्षामन्त्रालयेन अद्य सार्धनवशताधिक एकसहस्रस्य कोटिरूप्यकाणाम् अनुबन्धः हस्ताक्षरितः। बिहार प्रदेशे नालन्दा जनपदस्य बिहार शरीफे मघडा शीतलाष्टमी मन्दिरे जनानुधावनस्य कारणात् अष्टौ महिला भक्ताः मृताः, अन्याश्च आहताः। कोलकाता उच्च न्यायालयेन अनेकेषाम् आईएएस तथा आईपीएस अधिकारिणाम् अपि च विभिन्नानाम् अधिकारिणां च स्थानान्तरणस्य विरोधं कुर्वत्यः याचिकाः निराकृताः। ईरान देशस्य ड्रोन आक्रमणेन दुबई तटस्य समीपे एकः विशालः तैलेन पूरितः जलयानः आक्रान्तः। अपि च आईपीएल क्रिकेट क्रीडायां पंजाब किंग्स गुजरात टाइटन्स इत्येतयोः मध्ये क्रीडा भविष्यति। इदानीं वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्र मोदिना अहमदाबादस्य साणन्द ओएसएटी इत्यत्र केएन्स अर्धचालक संयंत्रस्य उद्घाटनं कृतम्। एतेन सहैव संयंत्रे वाणिज्यिक उत्पादनस्य शुभारम्भः भविष्यति। अस्मिन् अवसरे प्रधानमन्त्री जनसमूहं सम्बोधितवान्। एतत् संयंत्रम् उन्नत बुद्धिमत् शक्तियुक्त मॉड्यूल इति निर्मितं भविष्यति। एषः भारतस्य अर्धचालक क्षेत्रे महत्वपूर्णः विकासक्रमो विद्यते। प्रत्येक मॉड्यूल इत्यत्र 17 चिप्स इत्येतानि सन्ति। अपि च तेषाम् आपूर्तिः कैलिफोर्निया इत्यत्र अल्फा एंड ओमेगा सेमीकंडक्टर्स इत्यत्र कारयिष्यते।
भारत का सेमीकंडक्टर इकोसिस्टम किस पेड़ से, किस गति से, किस स्पीड के साथ डेवलप हो रहा है, मैं केन्स टेक्नोलॉजी की पूरी लीडरशिप को बहुत बहुत बधाई देता हूँ। मुझे इस बात की भी बेहद खुशी है कि भारत की कंपनी ने सेमीकंडक्टर चिप बनाने में रुचि दिखाई और नतीजा हम सबके सामने है। हमारे भारत की अपनी कंपनी केन्स अब ग्लोबल सेमीकंडक्टर सप्लाई चेन का एक मजबूत हिस्सा बन गई है।
प्रधानमन्त्री मोदी गुजरात यात्रायां महावीर जयन्त्यवसरे कोबा नगरे सम्राट सम्प्रति संग्रहालयस्य उद्घाटनं कृतवान्। अयं संग्रहालयः जैन इतिहासस्य, सम्राट सम्प्रति जीवनस्य, तस्य शासनस्य, अहिंसा सन्देशस्य च कृते समर्पितः अस्ति। अस्मिन् अवसरे जनसभां सम्बोधयता प्रधानमन्त्रिणा उक्तं यत् कोबा तीर्थं मूल्यानां संरक्षणं करोति, सांस्कृतिकम् आचारं संस्कारं सशक्तं करोति, ज्ञानं च प्रवर्धयति। तेन त्रयाणां वर्णानां धाराणां संगमः उक्तः। अध्ययनम् आध्यात्मिकः अभ्यासः आत्मानुशासनं च। श्रीमोदी अवदत् यत् एषः भारतीय सभ्यतायाः आधारः अस्ति। अस्य पवित्रस्य संगमस्य प्रवाहं निर्वाहयितुम् अस्माकं सामूहिकं कर्तव्यमस्ति इति प्रधानमन्त्रिणा बोधितम्।
आज भगवान महावीर जयंती के पावन पर्व पर मुझे इस पवित्र जैन तीर्थ आने का सौभाग्य मिला है। सर्वप्रथम मैं भगवान महावीर के चरणों में प्रणाम करता हूँ। सभी देशवासियों को भगवान महावीर जयंती की शुभकामनाएं देता हूँ। मैं आज परम पूज्य आचार्य श्री कैलाश सागर सुरेश्वर जी महाराज साहब की स्मृति को भी वंदन करता हूँ। उनके स्वप्न ने कोबा की इस धरती पर ज्ञान और श्रद्धा का यह महान केंद्र स्थापित किया है।
प्रधानमन्त्री नरेन्द्र मोदी गुजरातस्य वाव थराड इत्यत्र अपि विकास परियोजनायाः उद्घाटनम् अकरोत्। रक्षामन्त्रालयेन अद्य सार्ध नवशताधिक एकसहस्र कोटि रूप्यकाणाम् अनुबन्धे हस्ताक्षरः कृतः। भारतीय वायुसेनायाः कृते माउंटेन रडार द्वयस्य क्रयणं कर्तुं नवदिल्ल्यां भारत इलेक्ट्रॉनिक लिमिटेड इत्यनेन व्यापारः कृतः। मन्त्रालयेन उक्तं यत् स्वदेशीय रूपेण प्रारूप निर्माणं विकसितं निर्मितं च इत्थं हस्ताक्षरितः व्यापारः सर्वकारस्य आत्मनिर्भर भारतस्य मेक इन इंडिया इत्यस्य च उपक्रमैः सह सङ्गच्छते। बिहारप्रदेशे नालन्दा जनपदस्य बिहार शरीफे मघडा शीतलाष्टमी मन्दिरे अद्य प्रातः धार्मिक अनुष्ठानस्य समये जनानुधावनस्य कारणात् अष्टौ महिला भक्ताः मृताः, अन्याश्च काश्चन अनेकेकाः आहताः। आहताः स्थानीय चिकित्सालयेषु प्रवेशिताः। प्रत्यक्षदर्शिनाम् अनुसारेण एकस्याः मिथ्या जनश्रुतेः कारणात् जनसमूहे इतस्ततः अनुधावनं प्रारब्धम्। उद्धारकार्यं प्रचलति। मृतानां संख्या वर्धनस्य संभावना विद्यते। राष्ट्रपति द्रौपदी मुर्मुः उक्तवती यत् नालन्दायाः पुनरुत्थानं केवलं बिहारस्य भारतस्य वा उपलब्धिरेव नास्ति, अपि तु सम्पूर्णस्य विश्वस्य बौद्धिक सांस्कृतिक पुनर्जागरणस्य आरम्भः अपि अस्ति। राष्ट्रपतिः नालन्दा विश्वविद्यालयस्य द्वितीयं दीक्षान्त समारोहं सम्बोधयन्ती आसीत्। राष्ट्रपतिः मुर्मुः उक्तवती यत् सप्तचत्वारिंशद् उत्तर द्विसहस्र ईस्वीय तम वर्ष पर्यन्तं विकसित भारतस्य लक्ष्यं प्राप्तुं नालंदा विश्वविद्यालयस्य प्रमुखा भूमिका भविष्यति।
आज जो विश्व अनेक जटिल चुनौतियों का सामना कर रहा है, तो करुणा पर आधारित स्वतंत्र और विवेचनापूर्ण चिंतन की आवश्यकता पहले से अधिक है। मुझे विश्वास है कि नालंदा विश्वविद्यालय एशिया और विश्व में एक अग्रणी शिक्षण संस्थान के रूप में उभरेगी।
संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। समम् एव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन AIR चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। कोलकाता उच्च न्यायालयेन नेकेषाम् IAS तथा IPS अधिकारिणाम् अपि च विभिन्नेषु प्रभारी निरीक्षकाणां प्रभारी अधिकारिणां खण्ड विकास अधिकारिणां च स्थानान्तरणस्य विरोधं कुर्वत्यः याचिकाः निराकृताः। मुख्य न्यायाधीशस्य सुजॉय पॉलस्य न्यायमूर्तेः पार्थ सारथी सेनस्य च खण्डपीठेन निर्वाचन आयोगस्य स्थानान्तरण निर्णयस्य विरुद्धम् अधिवक्तुः आर्क नाग इत्यस्याः याचिकायाः प्रतिक्रियारूपेण आदेशः प्रसारितः। विश्वस्य बृहत्तमा जनगणना द्वयोः चरणयोः संचालिता भविष्यति। प्रथमस्य चरणस्य आरम्भः श्वः भविष्यति। प्रथमं वारं डिजिटल रूपेण जनगणनायाः संचालनं भविष्यति। स्वगणनायाः विकल्पोऽपि उपलभ्यते। भारतस्य महापञ्जीयकः जनगणना आयुक्तः च मृत्युंजय कुमार नारायणः आकाशवाण्या सह वार्तालापं कुर्वन् उक्तवान् यत् पूर्व जनगणनायाः अपेक्षया 27,000-2,000 जनगणना कथं भिन्नः अस्ति इति उक्तवान्। विदेशेषु निवसन्तः भारतीयाः जनगणनायां कथं भागं गृहीतुं शक्नुवन्ति इत्यपि सः स्पष्टीकृतवान्।
अभी प्रथम चरण की हम बात कर रहे हैं। प्रथम चरण बेसिकली मकानों की गणना और मकान सूचीकरण है। इसमें अगर बाहर रहते हैं कोई फर्क नहीं पड़ता। हम दूसरे चरण में जब एक व्यक्ति की गणना कराते हैं तो उसमें जो बाहर रहने वाले हैं उनको एम्बेसी के माध्यम से उनकी गणना कराने की व्यवस्था है।
चतुर्विंशतितमस्य तथा अन्तिमस्य जैन तीर्थंकरस्य भगवतः महावीर जन्म जयन्ती महावीर जयन्ती अद्य सम्पूर्णेऽपि देशे महतोत्साहेन आचर्यते। ईरान देशस्य ड्रोन आक्रमणेन दुबई तटस्य समीपे एकः विशालः तैलेन पूरितः जलयानः आक्रान्तः, येन वैश्विक ऊर्जा आपूर्तिषु व्यापक संघर्षस्य व्यवधानस्य च आशंका जाता। आक्रमणानन्तरं 2,00,000 बैरल परिमितं यावत् अशोधित तैलं वहतः कुवैत देशस्य ध्वजयुक्तः अल सलमी जलयाने अग्निप्रकोपः अभवत्। अद्य IPL क्रिकेट क्रीडायां न्यू चंडीगढ़ इत्यस्य मल्लांपुर महाराजा यादविंद्र संघ अंतर्राष्ट्रीय क्रिकेट क्रीडांगणे पंजाब किंग्स गुजरात टाइटन्स इत्येतयोः मध्ये क्रीडा भविष्यति। प्रतियोगिता सायं 7:30 आरभ्यते। इति वार्ताः।